ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भूतम् यच्च भव्यम् उदामि तत्त्वस्येषानः यदम् मेनाभिनोहति एतावानस्य महिमा हतोऽध्यायादिष्टपूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यावृतम् दिवि त्रिपादोऽर्ध्वोदयेत् पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् यत्क्रामते साधनावधने अभि तस्माद्विराटजायत विराजो अधिपूरुषः स जातो अद्य विद्यत पश्चाद्भूमिमसो पुरः यत्पुरुषेण हविषाः वेदाजिज्ञमतम् वद असन्तोऽस्यादीनाढ्यम् प्रेष्मयुद्धशरद्भविः सप्तास्यासंवरिधयः त्रिः सप्तसमिषः कृताः देवायज्ञन्तम् दानाः अनर्थम् पुरुषम् पशुम् कैयज्ञम् बर्हिषि प्रोक्षम् मे पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारिभयष्ठये तस्माज्ञात् सर्वहुदः संहृतम् बृहदाज्ञम् पशोविष्टाविष्टग्रेवाजव्यानि आरण्याम् ग्राम्याश्चये तस्माज्ञात् सर्वहुदः ऋजस्तामानि यज्ञे छन्दानम् यजज्ञे तस्माद् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेतो भजातकः गावो भजज्ञदेवस्मात् तस्माज्ञातामजावयः यत्पुरुषम् जगतो कतिभाव्यजद्वयम् मुखम् किमस्य तो बाहो हा गोरूपादामुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजम् न कृतः गोरोतनस्य यद्दैष्यः पद्मादम् शूद्रो अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आदीदन्तरिक्षम् शीर्षाभ्यौ समवर्तत पद्भ्राम्भो निर्दिशश्रोत्रात् तथा लोकागम् अकल्पयम् वेदाहमेतम् पुरुषम् महान्तम् आदित्यमन्दम् तमसस्तु पारे सर्वाणि रूपाणि विचित्रधीनः नामानि धृत्वाभिरजनिजदास्ते भ्राता पुरस्ताव्यमुदाजहार शक्रप्रविद्वान् प्रविशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजम् तदेवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानस्य सन्ते यत्र पूर्णे साभ्याः सन्ति देवाः अभ्यस्सम्भूतः पृथिवीरथाश्च विश्वकर्मणः समवर्तताभि तस्य पृष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमायानमग्रेः वेदाहमेतम् पुरुषम् महान्तम् आदित्यमन्दन्तमसः परस्पाद् तमेवम् विद्वानमृत इह भवति नान्यः पन्थायुध्यमे जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य दीनाः परिजानम् चिदोनिम् मरीदीनाम् पदविच्छन्ति वेदसः यो देवेभ्यातपति यो देवानाहम् पुरोहितः पूर्वोजो देवे ఋషేభ్యో జాతః నమో ఋతాయ బ్రాహ్మణే ఋతం బ్రాహ్మణ్ జనజం సహ దేవాగ్రేతరబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా సంవదే శ్రీష్టదే లక్ష్మీశ్చ మత్యౌః అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ ద్రాక్తం ఇష్టం మరిధాన అముం మరిధాన సర్వం మరిధాన.